सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति त्वान्तरूपं लेबन्तरूपं च. तत्र वयम् अध्यायम् एकमध्यायं त्वान्तरूपस्य पठितवन्तः, अपि अन्यत् अध्यायं तत्र लेबन्तप्रत्ययान्तपदानामपि पठितवन्तः. तत्र अभ्यासमध्ये स्मः. तत्र अन्तिम अभ्यासः प्रायः अथवा अन्तिमपुटम् एवं करणीयम् इति मन्ये. तत्र पुटसङ्ख्या 137, तत्र अधोभागे तत्र अस्ति एतानि वाक्यानि परिशीलयत इति. तत्र केचन वयं कृतवन्तः, किन्तु सर्वं कृतवन्तः वा? तत्र
एकादश अपि द्वादश करणीयं महोदय.
अस्तु, अतः पेज् 138 ततः एव आरम्भं, केवलं तद् अवशिष्यते. अस्तु भगिनि, अस्तु तर्हि भगिनी उषा भगिनी भवती एव आरम्भं करोतु. तत्र एकादश अपि द्वादश बिन्दु.
केशवस्य एतत् वचनं श्रुत्वा किरीटी अवदत्.
अस्तु,
त्वान्तप्रत्यय
अस्ति. अस्तु, तत्र केवलं तत्र त्वान्त लेबन्त पदम् अस्ति इति ज्ञानं तावदेव अत्र अस्ति खलु. अस्तु अस्तु, शृणोति. अस्तु अग्रे.
भगवन्तं स्मरन् शरीरं मुक्त्वा नरः देवपदं गच्छति. मुक्त्वा
इति त्वान्तपदं, त्वान्तपदं. तत्र स्मरन् इति पदस्य रूपं किम् इति?
भगवन्तं स्मरन् लोट् लकार अस्ति वा महोदय?
हा न न अन्यकोपि वदति वा तत्र? शत्रुप्रत्यय, शत्रुप्रत्यय. हा, पठन् इति. हा, तत्र भगवन्तं स्मरन् तत्र शरीरं मुक्त्वा तस्मिन् समये अपि भगवन्तं स्मरन्.
भगवन्तं स्मरन् शरीरं मुक्त्वा नरः देवपदं गच्छति.
मुक्त्वा इत्युक्ते देवा तत्र देहात् अथवा शरीरात् मुक्तिः,
मुक्तिः
यदा प्राप्तं भवति. किन्तु तद् एकमेव निमेषे एव, किन्तु तस्य पूर्वं कण्टिन्यूस्लि इति तत्र भगवन्तं स्मरणं भवेत्. हा, तत्र तस्य स्मरणं भवेत्. पठन् किमपि अन्यत् कार्यं, तत्र कार्यद्वयं भवति खलु. अतः तत्र स्मरणकार्यं निरन्तरं भवेत् तत्र. तस्मिन् तदा यदि शरीरस्य मुक्तिः भवति तदा नरः देवपदं गच्छति इति. यस्य चिन्तनम् अन्तिमकाले ततः एव तदेव प्राप्नुमः इति अस्ति खलु. हा, अतः तत्र अतः भगवतः स्मरणम् आसीत् चेत् तत्र देवपदं प्राप्नुमः.
भगवतस्य स्मरणं सदा,
भगवतस्य इति न, भगवतः
स्मरणं सर्वदा करणीयम्.
सर्वदा करणीयम् अपि अन्तिमकालस्य तस्मिन् समये तु निश्चयेन करणीयं, किन्तु तद् यदा भवति इति न जानीमः, अतः सर्वदा करणीयम् इति तावदेव. समीचीनं भगिनि, अस्तु अग्रे गच्छामः. अत्र अन्य कोऽपि आगतवा? अस्तु, श्रीप्रिया भगिनी नमस्कारः. अस्तु तर्हि अग्रे गच्छामः. तत्र रघुवीरानन्दमहोदय पठति वा?
आं महोदय, अग्रिमं किं महोदय?
तत्र चतुर्थ अभ्यासः, तत्र पेज् 138 मध्ये. कृतवन्तः तत्र सर्वं.
भीष्मः वा महोदय?
पेज् 138 मध्ये तत्र चतुर्थ अभ्यास तत् सङ्ख्याङ्कं गीताश्लोकं परिशील्य.
तत् सङ्ख्याङ्कं गीताश्लोकं परिशील्य आवरणे स्थितस्य धातोः त्वान्तेन लेबन्तेन वा रूपेण रिक्तस्थानानि पूरयत.
तत्र त्वान्तरूपं कदा कुर्मः, लेबन्तरूपं कदा?
धातोः एव अस्ति चेत् करणीयम्, उपसर्गः अस्ति चेत् लेबन्तं करणीयम्.
लभ्नन्ति. अतः उपसर्गरहितः अस्ति चेत् त्वान्तरूपम्, उपसर्गसहितः अस्ति चेत् लभन्तरूपम्. हा समीचीनं महोदय. हा अस्तु,
प्रथमं करणीयं भवान्.
हा हा करोतु महोदय.
दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्.
हा उपसङ्गम्य वचनम् अब्रवीत्, समीचीनं महोदय. अस्तु हा अग्रे.
केशवस्य वचनं श्रुत्वा किरीटी भीतवान्.
हा अस्तु समीचीनं महोदय. हा अस्तु, तत्र कोऽपि क्लेशः नास्ति इति मन्ये. अस्तु अग्रे अपि महोदय.
अहं वैश्वानरः भूत्वा चतुर्विधम् अन्नं पचामि.
हा अस्तु महोदय.
श्रुत्वा भू भूत्वा.
हा तत्र अग्रे.
भीष्मः सिंहनादं विनादयन्
विनादयन् इति न, तत्र लेबन्तरूपम् अपेक्षितम् अस्ति. अतः तत्र अन्य कोऽपि वदति वा तत्र किं विनद्य विनद्य तत्र नद्य इति. हा विनद्य तत्र लेबन्तरूपस्य करण तत्र अकारान्तम् अस्ति चेत् तत्र किमपि कार्यं नास्ति महोदय. तत्र केवलं यकारः एव. तत्र गतवर्गे अहं नियमः उक्तवान्, किन्तु तत्र अत्र तु समीचीन सरलमेव अस्ति. केवलं नद्य इति एव भवति, तावदेव
महोदय.
अस्तु, सो अतः तत्र विनद्य इति एव रूपं भवति. अस्तु अग्रे शोभा भगिनि.
महोदय, तत् ज्ञा धातुः, तत् ज्ञात्वा अमृतत्वम् अश्नुते.
अश्नुते प्राप्नोति इति अर्थे. अस्तु समीचीनं भगिनि. तत्र तु उपसर्ग नास्ति, ज्ञा एव दातु, अतः ज्ञात्वा इति त्वान्तरूपम्. हा अग्रे भगिनि.
रजसे प्रलयं तत्र गम् इति धातुः गत्वा कर्म सङ्गिषु जायते.
हा अतः गम् दातु, अतः उपसर्ग नास्ति, गत्वा इति. अस्तु अग्रे.
गोविन्दम् अत्र वच् इति धातुः, तत्रापि उपसर्ग नास्ति, उक्त्वा तूष्णीं बभूव.
बभूव इति समीचीनं भगिनि. तत्र बभूव इति लिट्लकार अस्ति, उवाच इति तद् न जानीमः वयम्. अपि प्रायशः तत्र गीतासोपने अपि न कुर्मः. लिट् लकारः बभूव, उवाच इति. उवाच इति जानाति खलु भगिनि. वच् वच् किं भवति भगिनि? उक्त्वा खलु. शोभा भगिनि.
महोदय.
हा वच् धातोः त्वान्तरूपं किम् उक्तवती? वद् इति धातु अस्ति चेत् वद् धातु वदित्वा इति अस्ति. वदित्वा न, उदित्वा. उदित्वा उदित्वा हा उदित्वा इति दृष्टवन्तः खलु तत्र. हा पूर्वमासीत् तत्र कुत्र पेज्. हा 129 वदति उदित्वा, किन्तु वच् धातुः उक्त्वा इति अस्ति. समीचीनं भगिनि अग्रे.
अग्रे दुर्योधनः पाण्डवानीकं तत्र दृश् इति धातुः उपसर्गरहितः दृष्ट्वा द्रोणम् अब्रवीत्.
अब्रवीत् समीचीनं भगिनि.
तत्र अब्रवीत् इति लङ्लकारे
ब्रवीति
ब्रवीति इत्यस्य.
समीचीनं भगिनि. अस्तु अग्रे.
भीष्मः शङ्खं तत्र ध्मा इति धातुः तत्र धमति इति भवति महोदय, किन्तु अहं न जानामि तत्र.
तत्र ध्मात्वा इति ध्मात्मा इति रूपम् अस्ति इति मन्ये. ध्मत्वा अथवा ध्मात्मा, तत्र ध्मत्वा अथवा ध्मात्वा इति सम्यक्तया न स्मरामि. कोऽपि जानाति वा तत्र? किन्तु दीर्घ एव अस्ति. अस्तु समीचीनं, धन्यवादः. ध्मात्वा इति ध्मात्वा इति शङ्खं, शङ्खस्य शङ्खेन नादं कृत्वा शङ्कः अस्ति खलु भगिनि, भीष्मः शङ्केन नादं करोति, तस्य नादं शङ्कनादं करोति इति अर्थः. तेन हर्षं जनयति, उत्साहं सन्तोषं. अग्रे भगिनि.
अग्रे माधवः स्यन्दने अत्र स्था धातुः, स्था अपि अस्ति, स्थित्वा पाञ्चजन्यम् अधमत्.
हा, तत्र प्रायशः तत्र पाणिनी पाठे तत्र स्था इति रूपं प्रायशः अस्ति इति मन्ये भगिनि, किन्तु स्था एव धातुः तत्र. स्था इति रूपं जानीमः, सः एव धातुः अत्र.
द्वे अपि अष्टाध्यायी आन्लैन् मध्ये द्वे अपि.
अस्तु भगिनि, अस्तु समीचीनं. हा, अतः तत्र स्था इति जानीमः. समीचीनं भगिनि, अस्तु धन्यवादः भगिनि. अग्रे नरेश. किं भगिनि? स्थित्वा इति, तिष्ट्वा इति रूपं नास्ति, स्थित्वा एव रूपम् अस्ति. स्थित्वा. अग्रे नरेश् महोदय.
महोदय, एकनिमिषं, पूर्वस्मिन् वर्गे संस्थभ्य इति आगतः, तत्र स्तम्भ इति धातु एव वयं दृष्टवन्तः महोदय. स्तब् इति अपि अस्ति किन्तु अष्टाध्यायी डाट् काम् मध्ये नास्ति. अपि च अहं धातुरूपनन्दिनी पुस्तके अपि न दृष्टवती महोदय, किन्तु स्वरूपमहोदयस्य करपत्रे अस्ति महोदय, स्तब् इति धातुः स्तब्नाति, तत्र संस्तभ्य स्तब् इति एव धातुः अस्ति महोदय.
इति वा? अस्तु अस्तु भगिनि, धन्यवादः. अस्तु धन्यवादः, अन्वेषणं कृतवती, समीचीनं, धन्यवादः भगिनि. तत्र एकवारं तत्र लिङ्क् प्रेषयति वा अनन्तरं?
अस्तु महोदय.
तत्र करपत्रे इत्युक्ते
पाणिनीयव्याकरणकरपत्रे धातुगणाः इति करपत्रे
वयं पठितवन्तः,
यत्र वयं दशेषु गणेषु क्रयादि तत्र कोष्टकस्थः करपत्रं न, तस्य पूर्वम् अस्ति.
पूर्वमेव अस्ति. अस्तु धन्यवादः भगिनि. हा, अतः तत्र अहं गीताप्रवेशः अपि दृष्टवान्, तत्र स्तम्भ इति एव धातु स्वीकृतम् अस्ति तत्र.
किन्तु महोदय, स्तब् इति धातोः उपयोगं कृतवान् तत्र, स्तब् इति स्तब्नाति इति.
कस्मिन् गणे अस्ति भगिनि तत्?
क्रयादिगणे महोदय, क्रयादि.
क्रयादि, अस्तु 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 भगिनि, धन्यवादः. अस्तु तत्र अहमपि किञ्चित् अन्वेषणं कृतवान्, किन्तु स्तम्भ इति एव
विवरणं न दत्तवान्, किन्तु तत्र उदाहरणे स्तब् स्तब्नाति इति दत्तवान्.
स्तब्नाति इति, अस्तु
महोदय.
अस्तु भगिनि, द्रष्टव्यम् अस्ति अतः तत्र. धन्यवादः भगिनि. हा, पुनः अपि अहमपि अन्वेषणं करोमि. तत्र चतुर्थबिन्दुः खलु, तत्र आत्मना आत्मानं संस्तभ्य कामरूपं शत्रुं जहि इति. धन्यवादः भगिनि. हा, अस्तु, तत्र करपत्रं पुनः पश्यामि भगिनि, धन्यवादः.
योधोः प्राणान् त्यज यज शब्दमस्ति, स्वरूपं त्यक्त्वा. योधाः प्राणान् त्यक्त्वा युद्धार्थम् अवस्थिताः.
युद्धार्थम् अवस्थिताः, समीचीनं महोदय. अग्रे,
वयं स्वजनं हन् धातु उपसर्ग नास्ति, स्वरूपं वयं स्वजनं हत्वा.
हत्वा एव रूपं, समीचीनं भगिनि, सुखिनः न भवामः. समीचीनम्. अग्रे,
अर्जुन स्वधर्मपि च अवयोग इच्छत्. उपसर्ग अस्ति, लबान्तरूपं
तत्र अवयोगः ईक्ष् इति अवेक्ष् इति भवति, तदनन्तरं यकारः अवेक्ष्य तावदेव.
अर्जुन स्वधर्म धर्ममपि च अवेक्ष्य न विकम्पितुम्
अर्हसि, विकम्पितुम् अर्हसि.
मनीषिणः कर्मफलं त्यज स्वरूपं त्यक्त्वा मनीषिणः कर्मफलं त्यक्त्वा अनामयं पदं गच्छन्ति.
हा, अनामयं पदं गच्छन्ति तत्रापि त्यक्त्वा. अस्तु, केवलं द्वयमेव अस्ति, तदपि करोतु महोदय.
श्रद्धावान् यानं त्वां रूपं लभत्वा,
न लब्ध्वा, लब्ध्वा इति
लब्ध्वा. श्रद्धावान् यानं लब्ध्वा परां शान्तिम् अधिगच्छति.
हा, अधिगच्छति, प्राप्नोति.
अर्जुनः हृदयस्थं
तत्र एकनिमिषं महोदय, तत्र अधिगच्छति इति प्राप्नोति इति अस्ति, तत्र प्राप्नोति इति पदस्य अर्थद्वयमस्ति खलु? कोऽपि वदति वा कः भेदः तत्र? अर्थद्वय अस्ति प्राप्नोति इति.
किं
प्राप्नोति इति क्रियापदस्य अर्थद्वयमस्ति साधारण अर्थं, किन्तु तत्रापि अर्थद्वयं साधारण अर्थद्वयम् अस्ति, कोऽपि वदति वा?
प्राप्नोति, प्राप्तं करोति.
एकम् अस्ति तत्र, अहं मम पुस्तके गीतासोपानं पुस्तकं कुत्र अस्ति इति न जानामि, अन्वेषणं करोमि, तदनन्तरम् अस्तु अस्तु इदानीम् अहं प्राप्तवान् इति वदामि, तदेकम् अस्ति प्राप्नोति इति. अन्यत् किम् अस्ति?
तत्र गच्छति.
हा, तत्र अहम् अतः भारतदेशं गच्छामि, भारतदेशं प्राप्तवान् इति, तादृश अर्थे अत्र परं परां शान्तिम् अधिगच्छति, प्राप्नोति इति. अस्तु, अग्रे महोदय, अन्तिमम्.
अर्जुन हृदयस्थम् अज्ञानजं संशयं छिद्धातु स्वान्तरूपं छित्त्वा.
छित्त्वा एव, समीचीनं महोदय.
अर्जुन हृदयस्थम् अज्ञानजं संशयं छित्त्वा उत्तिष्ठ.
हा, चित्वा इत्युक्ते कर्तयित्वा इति अर्थे, तत्र कर्तयित्वा उत्तिष्ठ. तत्र हा, हृदयस्थं, हृदये, हृदये यदस्ति, तद् यदस्ति तद् अज्ञानजं संशयं, तत्र संशयम् अज्ञानजं तयोः मध्ये विशेषणविशेषभावः अपि तत्र अन्यदपि अस्ति. तत्र अज्ञानजम् इत्युक्ते अज्ञानेन यद्भवति संशयं, सो अतः तत्र अज्ञानः जनकः, संशयः जन्यः, अज्ञानेन जननं भवति संशयस्य, तादृशसंशयस्य तद् तादृशसंशयं चित्वा अथवा कर्तयित्वा उत्तिष्ठ अर्जुन इति. अस्तु, समीचीनं, धन्यवादः महोदय. अस्तु, अग्रे शुभा भगिनी पठति वा तत्र पञ्चम अभ्यासः?
आम् महोदय.
तत्र केवलं तत्र क्त्वान्तरूपं ल्यबन्तरूपं तस्य किम् अस्ति इति वक्तव्यं तावदेव अत्र.
दृष्ट्वा तु पाण्डवानेकं दृष्ट्वा.
दृष्ट्वा, हा, अस्तु, अग्रे.
धनुः उद्यम्य पाण्डवः उद्यम्य
ल्यबन्तरूपं. समीचीनं.
स्वजनं हि कथं हत्वा सुखिनः स्याम, हत्वा स्वान्तरूपं
इति. समीचीनं.
तत्रैकाग्रं मनः कृत्वा, कृत्वा स्वान्तरूपं. सर्वद्वाराणि संयम्य मनोहृदि निरुध्य च, संयम्य ल्यबन्तरूपम्.
अपि
ज्ञात्वा भूतादिम् अव्ययम्.
तस्मिन्नेव वाक्ये केवलं संयम्य इति एकमेव निरुद्ध्य अपि समीचीनं निरुद्ध्य अपि लेबन्तरूपं समीचीनं भगिनि
लेबन्तरूपं ज्ञात्वा भूतादिम् अव्ययम् ज्ञात्वा
ज्ञात्वा एव समीचीनं
धृत्यात्मानं नियम्य च नियम्य लेबन्तरूपम्
लेबन्तरूपम् अपि धृत्य इति तदपि धृत्य आत्मानं धृत्य योगः आत्मानं धृत्य आत्मानं नियम्य आत्मानं च तत्र क्रियाद्वयं कर्मपदम् आत्मानम् इति मन्ये तत्र धृत्य आत्मानं धृत्य नियम्य च इति मन्ये भगिनि द्रष्टव्यं किन्तु तत्र लेबन्तरूपद्वयम् अस्ति तत्र द्वयमस्ति समीचीनं भगिनि धन्यवादः अङ्कितञ्जलि भगिनि अग्रे केवलं त्वान्तरूपं लेबन्तरूपम् अस्ति न वा इति परिशील्य वक्तव्यमस्ति भगिनि तावदेव
अथ व्यवस्थितान् दृष्ट्वा
त्वान्तरूपं
निहत्य धार्तराष्ट्रान् नः निहत्य
इति
हत्य किन्तु त्वान्त किन्तु नि अस्ति महोदय
अतः त्वान्त नास्ति खलु लेबन्त एव अस्ति खलु लेबन्त अस्ति
एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानं बुद्ध्वा संस्तभ्य इति लेप्
तत्रापि लेप् एव अस्ति तत्रापि लेप् एव अस्ति सत्यं भगिनि
उपविश्य आसने युञ्ज्यात् उपविश्य इति ल्यवन्त
समीचीनं भगिनि
भूतग्रामः स एवायं भूत्वा प्रलीयते भूत्वा इति वान्तः
तत्र अस्तु तत्र अन्यत् किमपि नास्ति समीचीनं भगिनि अन्तिमं
सगद्गदं भीतभीतः प्रणम्य महोदय
प्रणम्य एव तावदेव समीचीनं भगिनि समीचीनम् अस्तु तत्र अस्तु तत्र तर्हि तत्र अन्यत् किमपि नास्ति अस्तु अतः इदानीं तत्र त्वान्तरूपमपि लेबन्तरूपस्य परिचयः जातः अनेकानि रूपाणि अपि वयं परिशीलितवन्तः इदानीं तत्र अस्यां कथायां तत्र त्वान्त अपि लेबन्तरूपाणि दृश्यन्ते तद् अपि अतः कथां पठामः तत्र त्वान्तरूपं लेबन्तरूपस्य प्रयोगः अपि तत्र कीदृशः इति तत्र अस्माभिः ज्ञातुं शक्यते अस्तु तर्हि तत्र कथा अस्ति शान्तिप्राप्तेः मार्गः इति अस्तु तर्हि तत्र वदतु भगिनि
भगिन्याः प्रश्नः अस्ति इति मन्ये
कस्याः
महोदय श्रूयते वा महोदय
वंशी सत भगिनि वदतु भगिनि
मम ध्वनिः सम्यक् अस्ति वा नास्ति
वा शनैः अस्ति भगिनि उच्चैः किञ्चित् वदतु भगिनि
अहम् एकवारं पुनः आगच्छामि वा महोदय
अस्तु भगिनि अस्तु श्रूयते किन्तु शनैः श्रूयते भगिनि
एकप्रश्नं पृच्छामि अनन्तरं
बहिर्गच्छतु
उद्यम्य तत्र उद्योगः धातु किं महोदय
उद्यम्य एफर्ट् इति तत्र
तत्र अर्थः जानामि परन्तु धातु उद्योगः धातु किम् अस्ति तत्र
अस्तु एकनिमिषं भगिनि अस्तु तत्र उद्यम्य एकनिमिषं भगिनि वदामि तत्र एकनिमिषं तत्र दृष्ट्वा वदामि तत्र प्रायशः तत्र अन्य अपि दृष्ट्वा वक्तुं शक्नुवन्ति
अन्यः एकः प्रश्नः अपि अपेक्षते निरुद्ध्य तत्र निर्योगः किम् अस्ति धातु निर्योगः उद्यम्य अपि च निरुद्य किञ्चित् क्लेशः मम संशयः अस्ति महोदय.
अस्तु भगिनि, तत्र उद्यम्य अपि अन्यत् किम् अस्ति?
निरुद्य महोदय, चतुर्थ पञ्चम अस्ति. सर्वद्वाराणि संयम्य मनोहृदि निरुद्य.
निरुद्य, अस्तु 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 भगिनि, अस्तु. तत्र दृष्ट्वा वदामि भगिनि, किन्तु भवती यदि इच्छति तत्र पुनराग गत्वा पुनराग आगच्छतु, दृष्ट्वा वदामि भगिनि. अस्तु अस्तु तर्हि तत्र अस्तु. अतः तत्र ललिता भगिनी प्राप्तवती वा कथा? अस्तु, न श्रूयते इति मन्ये. अस्तु, अस्तु अस्तु अस्तु, समीचीनम्. अस्तु श्रीप्रिया
भगिनी,
किन्तु तत्र चाट् मध्ये लिङ्क् प्रेषितवान्, तत् प्राप्तं खलु? अस्तु अस्तु. श्रीप्रिया भगिनी श्रूयते वा? अस्तु तर्हि तत्र शोभा भगिनी आरम्भं करोति वा?
आं महोदय. तत्र कथा, कश्चन राजा शान्तियुतं जीवनं कर्तुम् इच्छति स्म, किन्तु तदर्थं कः मार्गः इति सः न जानाति. तस्मात् सः भटान् आज्ञापितवान् सर्वत्र अटित्वा महात्मनां दर्शनं कृत्वा शान्तियुक्तजीवनस्य मार्गं ज्ञात्वा आगच्छन्तु इति. राजाज्ञां पुरस्कृत्य बहवः भटाः विविधाः दिशः उद्दिश्य प्रस्थिताः. तेषु अन्यतमः भटः कुत्रचित् वृक्षस्य अधः शान्तमुद्रया उपविष्टवन्तं तेजस्विनं सन्यासिनम् अपश्यत्. सः अश्वात् अवतीर्य सन्यासिनं नमस्कृत्य राज्ञः अपेक्षाम् अश्रावयत्.
अश्रावयत्, समीचीनं भगिनि, समीचीनम्. अस्तु, अग्रे नरेश महोदय पठति वा?
सः शान्तिमार्गः अन्तरङ्गे भवति, भवतः राज्ञः अन्तः अपि अस्ति. सः राजानम् एतदेव वदत् इति अवदत् सन्यासी. भटः प्रतिगत्य राजानम् एतदेव अवदत्, किन्तु राज्ञा एतस्य तात्पर्यं न अवगतवान् अवगतम्. अतः सः स्वयमेव प्रस्थाय तं सन्यासिनम् उपसर्य उपसर्प्य विनयेन नमस्कृत्य तस्य वचनस्य तात्पर्यम् अपृच्छत्.
हा, समीचीनं महोदय. अस्तु, अग्रे ललिता भगिनी पठति वा?
महोदय, इदानीं श्रूयते वा महोदय?
हा, श्रीप्रिया भगिनि श्रूयते भगिनि, इदानीं श्रूयते. वंशी सुधा भगिनी, ओ न प्राप्तवती, अहं चाट् मध्ये लिङ्क् प्रेषितवान्, तदपि न प्राप्तं भगिनि. हा, तत्र चाट् मध्ये अहं प्रेषितवान्. ओ इति वा, अस्तु भगिनि. श्रूयते भगिनि, श्रूयते भगिनि, श्रूयते. अस्तु, तत्र एकनिमिषात् किं मध्ये, एफ् सि सि मध्ये एव, किन्तु तत्र एकनिमिष पश्यामि तत्र. अस्तु भगिनि, एकनिमिष तत्र. अस्तु, तत्र ईमेल् द्वारा अपि प्रेषितवान् अस्मि भगिनि, तत्र पश्यतु, प्रायशः तद् इदानीम् अस्ति इति मन्ये. हा, अस्तु. अतः अन्य ईमेल् ईमेल् मध्ये प्रेषितवान् भगिनि, तत्र भवत्याः ईमेल् यमगुचि इति तत्र प्रेषितवान् अस्मि। हा अस्तु, वंशीसुधा भगिनी कथं पठति वा अग्रे इदानीं तत्र? तत्र वयम् इदानीं तत्र तात्पर्यम् अपृच्छत् इति कृतवन्तः, इदानीं शान्तिमार्गस्य इति।
आम् महोदय, शान्तिमार्गस्य अन्वेषणं न बहिः करणीयं, बाह्यान्वेषात् प्राप्तः मार्गः बाह्यान्वेषाभ्यामन्त्रं बाह्यशोभामात्रं वर्धयेत्।
जलप्राप्त्यर्थं
यथा भूमौ खननं क्रियते तथा अन्तरङ्गे शोधनं करणीयम् अस्तु, तदा एव शान्तिः प्राप्येत् इति विवृतवान् सन्यासी। अग्रे पठामि वा? तदा राजा पुनः प्रार्थितवान्, अन्तरङ्गशोधनस्य सोपानानि कानि इति विवृणोतु भवान् कृपया इति।
हा अस्तु भगिनि, हा धन्यवादः। अस्तु, इदानीम् अग्रे तत्र रघुवीरानन्दं स्वामीजी पठति वा अग्रे? महोदय अस्ति वा?
अस्मि महोदय, एकवारम् उद्घाटयामि।
अस्तु अस्तु,
महोदय
इदानीं सन्यासी पुनः वदति द्वितीयस्तम्भः
तदा राजः
सन्यासी पुनः वदति इति।
सन्यासी पुनः अवदत्, आदौ किरीटं कीर्तिः राजत्वम् इत्यादीनाम् अपनयनं चिन्तय, ते च शुष्कमृत्तिका इव, ततः पुंस्त्वादिकमपि पार्श्वे स्थापय, तस्मात् आर्द्रमृत्तिकाकारणतः भूमिः खननार्हतां यथा प्राप्नोति तथा भवतः अन्तरङ्गमपि परिशोधनार्हतां ततोऽग्रे अभावात्मकचिन्तनानि दूरीकरणीयानि।
भावात्मकचिन्तनानि, अस्तु महोदय, तावत्पर्यन्तं सम्यक् एव अस्ति, धन्यवादः महोदय। अस्तु, अग्रे उषा भगिनी पठति वा?
आं महोदय,
ऐ गाट् इट्, ऐ गाट् इट्।
हा अस्तु अस्तु भगिनि, समीचीनं।
भावात्मकचिन्तनानि अधोधः खननं सङ्केतयन्ति, ततोऽग्रे स्वस्य अभिज्ञानम् अस्तित्वम् इत्यादीनामपि विलयः चिन्तनीयः, सा च स्थितिः साधिता चेत् स्फटिकनिभं परिशुद्धं जलम् इव शान्ति सन्तोषसन्तृप्तादयः प्राप्यन्ते, एतस्यां स्थितौ यावत् तिष्ठेम तावत् अपारप्रमाणेन प्राप्यन्ते, सततप्रयासेन निरन्तराभ्यासेन च सा स्थितिः वेगेन प्राप्तुं शक्या। आदौ तस्याः स्थितेः प्राप्त्यर्थम् अधिकप्रयासः करणीयः,
किन्तु उच्चताकालेन अभ्यासबलात् सा शीघ्रमेव प्राप्यते इति. अस्तु, भव दुःखेन क्रमेण साधनां करिष्यामि इति उक्त्वा सन्यासिनं पुनः नमस्कृत्य ततः निर्गतवान् राजा.
हा अस्तु, धन्यवादः भगिनी. हा धन्यवादः. अस्तु, तत्र किं किम् अस्ति इति पङ्क्तिशः पश्यामः. तत्र गीताञ्जलि भगिनी आरम्भं करोति वा?
महोदय,
हा,
उद्यम्य उद्यम्य उद्यम्यः उद्यम्या उद्यम्यम्.
तत्र धातु किं भगिनि?
उपसर्ग यम् टु ईज़.
हा धन्यवादः भगिनि. यम् अस्तु अस्तु, वंशीसुधा भगिनि, यम् इति धातुः.
धन्यवादः भगिनि.
निरुद्य इति तत्र
एकनिमिषम्.
अस्तु 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 भगिनि. हा गीताञ्जलि भगिनि पठति वा?
आम् महोदय, प्रयत्न करोमि. कश्चन राजा शान्तियुतं जीवनं कर्तुम् इच्छति स्म. कश्चन राजा एक राजा शान्तियुतं जीवनं इत्युक्ते विशेषणविशेष्य
भावः तत्र जीवनम्
इति विशेष्य शान्तियुतम् इति रूपं तु अहं न जानामि, किन्तु
शान्तियुक्तं तत्र शान्तिः शान्ति शान्ति जीवने सर्वदा भवेत् इति तादृशजीवनं शान्तियुक्तजीवनं.
किन्तु युतमेव अत्र
युतम् इति रूपम् अस्ति तत्र तत्र युक्तम् इति अर्थे युक्तम् इति समानार्थकम्. अग्रे अपि तत्र शान्तियुक्तजीवनस्य मार्गम् इति अग्रे अपि अस्ति तत्र.
शब्दस्य रूपस्य
नाम न जानामि भगिनि, द्रष्टव्यमस्ति. किन्तु तत्र युत इति प्रायशः तत्र दृश्यमाना इति तादृश तत्र फिल्ड् वित् इति तस्मिन् अर्थे अस्ति. किं भगिनि?
शान्तियुक्तिः वा?
हा युक्त इति अस्ति, किन्तु अर्थः समानं भगिनि, किन्तु तत्र युत इति अस्ति. युतम् इति तत्र विशेषणम् अस्ति इति कृत्वा नपुंसकलिङ्गे अस्ति, किन्तु युक्ति युक्तः युक्तम् इति तादृशार्थे एव अस्ति. सत्यं.
कर्तुम् इच्छति स्म, कर्तुम् इति
तुमुन् रूपम्. इच्छति स्म
इत्युक्ते भूतकालार्थक
हा तत्र इच्छति स्म केवलम् एकवारम् इति न, तस्य वारं वारं तत्र कण्टिन्यूस् इति अर्थे तत्र तादृश इच्छा तस्मिन् मनसि आसीत्. अतः इदानीमपि अस्ति कथाया प्रसङ्गे अपि तस्मिन् तादृशः आशा अस्ति. अतः सः चिन्तन अस्ति किं करणीयम् एतादृशम् इच्छामि किन्तु न प्राप्नोमि इति, कथं तस्य तत् प्राप्नोमि इति तस्य चिन्तनम् अस्ति. अग्रे
कृतवान् अस्तु, किन्तु तदर्थं कः मार्ग इति सः न जानाति.
तत्र तदर्थम् इत्युक्ते
शान्तियुतं जीवनं कथं,
तत्र जीवनार्थं जीवनार्थं तस्य प्राप्तिः कथं भवेत् इति, तस्य प्राप्तिः कथं भवेत् अतः अथवा तस्य मार्गः कः, तत्र गन्तुं कः मार्गः इति सः न जानाति.
तस्मात् सः भटान् आज्ञापितवान्.
तत्र तस्मात् इत्युक्ते
तस्मात् इत्युक्ते तदनन्तरम् इत्युक्ते
तदनन्तरं तत्र पूर्वं किमपि नास्ति खलु भगिनि, तत्र इच्छा अस्ति किन्तु तत्र सः न जानाति इति कृत्वा तत्र तस्मात् कारणात् अत्र तस्मात् कारणात् कारणपञ्चमी इति रूपं तत्र तस्मात् कारणात्
महोदय तस्मात् कारणात् सः भटान् आज्ञापितवान्. भटान् इति कर्मपदं
द्वितीयव्यक्तिरूपं बहुवचनं भटः भटान् आज्ञापितवान् आदेशं कृतवान्
आदेशं
न आह्वा इत्युक्ते इन्वैट् इति तत्र आज्ञा कृतवान्
आज्ञापितवान्
आदेशम् आदेशं दत्तवान्
आदेशं दत्तवान्
आदेशं दत्तवान्
अस्तु सर्वत्र अटित्वा महात्मनां दर्शनं कृत्वा शान्तियुक्तजीवनस्य मार्गं ज्ञात्वा आगच्छन्तु
हा अस्तु तत्र त्वान्तरूपम् अस्ति खलु तत्र
आं महोदय सर्वत्र अटित्वा इत्युक्ते
भ्रमित्वा समीचीनं भ्रमित्वा
महात्मनां दर्शनं कृत्वा इत्युक्ते
आत्मन् इति पदं नकारान्तपदं तत्र महात्मनाम् इति तत्र दर्शनं इति अस्ति अतः तत्र महात्मनाम् इति किं भवति षष्टिबहुवचनं तेषां दर्शनं कृत्वा
शान्तियुक्तजीवनस्य मार्गं ज्ञात्वा इत्युक्ते यः जीवन राजा इच्छति तस्य जीवन
यत् जीवनं राजा इच्छति
तत् जीवन
तादृशजीवनस्य मार्गं
तादृशजीवनस्य मार्गं ज्ञात्वा इत्युक्ते परिशील्य
तत् कथं तस्य तत् प्राप्तुम् इच्छामश्चेत् किं करणीयम् इति तस्य तत्र तत्र गन्तुं कः मार्गः इति तादृशज्ञानं
प्राप्त्वा
आगच्छन्तु लोट् बहुवचनं समीचीनं भगिनि तत्र मार्गं ज्ञात्वा अटित्वा कृत्वा इति समीचीनं भगिनि धन्यवादः अस्तु तत्र अग्रे वंशीसुधा भगिनी भवती पठितवती अस्तु तत्र श्रीप्रिया भगिनी पठति वा अग्रे ललिता भगिनी पठति वा अस्तु अस्तु पठतु भगिनी ललिता भगिनी पठतु अग्रे
राजाज्ञां पुरस्कृत्य बहवः भटाः विविधाः दिशः उद्दिश्य प्रस्थिताः
तत्र राजाज्ञाम् इति किम् अस्ति राजाज्ञाम् इति प्रायशः आज्ञा इति अस्ति इति मन्ये
स्त्रीलिङ्गा
तत्र राज्ञ आज्ञा तत्र राजा इति पदस्य षष्टि अस्ति राज्ञः किन्तु आज्ञा इति लिङ्गं कर्मपदम् आज्ञा इति पदं कीदृशपदं स्त्रीलिङ्गं वा स्त्रीलिङ्गम् अत्र राजाज्ञां पुरस्कृत्य अनुसृत्य अत्र तत्र तस्य पालनं कृत्वा इति अर्थे यत् आज्ञा यत् आदेशम् आसीत् तत् अनुसारं
बहवः भटाः
तत्र भटाः इति
भटाः बहुवचने
तत्र भटाः इति तस्मिन् वाक्ये क्रियापदं
भटाः
कीदृशपदं कर्मपदं वा कर्तृपदं वा
कर्मपदं
किमर्थं तत्र भटाः इति विभक्ति का तत्र
प्रथमा
अतः कर्तृपदं खलु
बहवः भटाः विविधाः दिशः उद्दिश्य
भटाः प्रस्थिताः तत्र प्रस्थिताः आसन् इति प्रायशः भवति तत्र भटाः प्रस्थिताः आसन् तत्र कर्तृपदम् बहवः इति तत्र बहवः इति विशेषणम् अस्ति बहवः भटाः इति
विशेषणं
कर्तृपदं ते एव कार्यं कुर्वन्ति खलु कर्तृपदम् अस्ति, कर्मपदं नास्ति, सब्जेक्ट् इति.
अस्तु,
यत् यत् क्रियां करोति स तत् कर्तृपदम्. किं कृतवन्तः भटाः? ते विविधाः
दिशः, दिक् दिक् इति धातुः,
दिक् इति तत्र पदम्, एतत् नामपदम् अस्ति,
नामपदं दिक्.
हा, अत्र हा दिशः इति तत्र वचनं किम् इति तत्र बहुवचनं समीचीनमेव. कथं वक्तुं शक्नोति भवती? समीचीनमेव, किन्तु तत्र यदि पश्यति तत्र यद् अस्ति तद् दृष्ट्वा वक्तुं शक्नुमः तद् बहुवचनम् इति एव. कथं कथं
हा
विविधाः इति विशेषणम् अस्ति, अतः तत्र बहुवचनम् इति वक्तुं शक्नुमः. अपि विविधाः इति तत्र लिङ्गं कोऽपि जानाति वा?
दिश्
लिङ्गं, दिश् इति प्रायशः स्त्रीलिङ्गपदम् अस्ति वा? तत् दिश्
विविधाः
दिशः इति.
हा, तत्र लिङ्गं किम् इति कोऽपि स्मरति वा? नपुंसकलिङ्गं, नपुंसकलिङ्गपदं वा? विविधाः इति विशेषणम् अस्ति अत्र, अतः
नपुंसकलिङ्गं
स्त्रीलिङ्गम् इति. अस्तु, विविधाः इति तत्र विधा विविधा इति. हा, अस्तु, समीचीनं.
न जानामि महोदय कथं दृष्ट्वा वक्तुं
शक्नोमि. चिन्तयामि स्त्रीलिङ्गम् इति चिन्तयामि भगिनि. अस्तु, तत्र
श्रूयते वा महोदय?
हा, इदानीं श्रूयते भगिनि, इदानीं श्रूयते. अग्रे भवती पठतु भगिनि. स्त्रीलिङ्गं वा?
चिन्ता, स्त्रीलिङ्गं दिश् दिश् इति नाम प्रातिपदिकम् अस्ति
महोदय. हा, अस्तु, धन्यवादः भगिनि. दिश् इति स्त्रीलिङ्गम्, अस्तु, समीचीनम् इति चिन्तितवान्. किन्तु
दिश् प्रातिपदिकम्?
दिश् प्रातिपदिकम् अस्ति, दिक् दिनौ दिशः.
प्रथमाविभक्ति एकवचनरूपं दिक् इति, किन्तु प्रातिपदिकं दिश्. अस्तु
महोदय, नपुंसकलिङ्ग इति जानामि महोदय, दिग् दिग्.
हा, किन्तु भगिनि तत्र विविधाः इति अस्ति, तत्तु नपुंसकलिङ्गे नास्ति खलु, बहुवचनरूपं.
कथं जानीमः दिक् इति स्त्रीलिङ्ग अस्ति महोदय?
तत्र द्रष्टव्यम् अस्ति भगिनि, किन्तु नपुंसकलिङ्गे तु नास्ति, तत्र विविधाः इति अस्ति इति कृत्वा.
कर्मपदम् इति कृत्वा स्त्रीलिङ्गबहुवचनम् इति वक्तुं शक्नुमः.
तदपि समीचीनं भगिनि. तत्र उद्दिश्य इति, उद्दिश्य तत्र दिश्, तदपि तत्रापि दिश् इति अस्ति, किन्तु तद् दिश् अस्ति क्रियापदं, धातु दिशति इति, तत्र द्वितीयगणे अस्ति दिशति इति, उद्दिशति इति क्रियापदं भवति, तत् तस्य लबन्तरूपम् उद्दिश्य इति भवति. किन्तु तत्र हा, अतः तत्र ओ क्षम्यतां, तत्र उद्दिश्य इति षष्ठगणे अस्ति. हा, उद्दिश्य, अतः तत् तत् तस्य कर्मपदम् अस्ति दिशः इति, अतः तत्र. अस्तु अस्तु भगिनि, लता भगिनी अग्रे गच्छतु.
तेषु अन्यतमः भटः कुत्रचित् वृक्षस्य अधः शान्तमुद्रया उपविष्टवन्तं तेजस्विनं संन्यासिनम् अपश्यत्.
हा, अस्तु, इदानीं तत्र अत्र भटाः प्रस्थिताः. प्रस्थिताः इत्युक्ते ते सर्वे गतवन्तः. केवलम् एके सर्वे किम् अत्र एव गच्छामः इति न चिन्तितवन्तः. एकः एकं मार्गं स्वीकृतवान्, अन्यः अन्यान् अन्यत् मार्गं स्वीकृत्य गतवान्. अतः ते विविधाः दिशः उद्दिश्य ते सर्वे गतवन्तः. तेषु, तेषु इत्युक्ते केषु?
सप्तमी.
हा, किन्तु तेषु इत्युक्ते केषु? केषु केषु
अन्यतमम्?
किन्तु अतः तेषु इत्युक्ते केषु? हा, भटेषु इति. हा,
भटेषु.
हा, तेषु भटेषु.
भटेषु अन्यतमः.
अन्यतमः इत्युक्ते, अन्यतमः इत्युक्ते one of them, ekah. अन्यतमः वन् आफ् द बटास् इति तेषु अन्यतमः बटः
कुत्रचित्
वृक्षस्य
शान्तमुद्रया
कुत्र शान्तमुद्रया इति तत्र विभक्ति का तत्र
तृतीया विभक्ति
एकवचन प्रथमविभक्तिरूपं
प्रथमा
न न एक
स्त्रीलिङ्ग् एकवचन
मुद्रया मुद्रा शान्तमुद्रा प्रथमविभक्तिरूपम् अस्तु हा अग्रे
उपविष्टवन्तम्
तत्र एतत् करोतु भगिनि तत्र भटः अन्तिमपदं पश्यतु तत्र भटः अपश्यत् इति भटः अपश्यत् किम् अपश्यत् अथवा अपश्यत् इति लङ्लकाररूपम् अस्ति समीचीनं पश्यत् इति अतः तत्र किम् अपश्यत् अथवा कम् अपश्यत् हा अस्तु अत्र सन्न्यासिनम् अपश्यत् सन्न्यासिनं किं भवति अपश्यत् इति कर्तृ क्रियापदस्य कर्मपदम् हा समीचीनं भगिनि अस्तु अतः सन्न्यासिनं सन्न्यासी इति रूपं तत्र नकारान्तपदम् अस्ति किन्तु सन्न्यासिन् इति प्रातिपदिकं किन्तु सन्न्यासी इति प्रथमविभक्तिरूपम् अत्र सन्न्यासिनम् इति द्वितीयविभक्तिरूपम् एकवचने अपि तेजस्वी अपि तादृश तत्र तेजस्वी इति प्रथमविभक्तिरूपे तत्र इकारः दीर्घः वा ह्रस्वः वा दीर्घ हा समीचीनम् तेजस्वी इति तादृश सन्न्यासी
द्वितीया
हा एतत् तेजस्विनं द्वितीया एकवचनं समीचीनं भगिनि तेजस्विनम् अस्ति विशेषणं सन्न्यासिनं पदस्य अतः समानविभक्ति समानवचनं सर्वम् अपि उपविष्टवन्तं तत्र उपविष्टवन्तम् इति पदस्य उपविष्टवान् तत्र
उपविष्टवन्तः
इति प्रायः
भगवतः
सत्यं किन्तु भगवतः षष्ठी अपि भवति एकवचनं तत्र द्वितीय विभक्ति बहुवचनम् अपि अस्ति समीचीनं भगिनि अतः तत्र शान्तमुद्रया उपविष्टवन्तं
तेजस्विनं
दृष्टवान् समीचीनं भगिनि एषः भटः दृष्टवान् इदानीम् अग्रे
सः अश्वात् अवतीर्य सन्न्यासिनं नमस्कृत्य राज्ञः अपेक्षां श्रावयत्
सः भटः अवतीर्य लेबन्त समीचीनं भगिनि तत्र अश्वत् अश्वत् इति तृतीया नास्ति पञ्चमी अस्ति अश्वत् अवतीर्य अवतीर्य इत्युक्ते अवतरणं कृत्वा इति समीचीनं भगिनि अवतीर्य अश्वात् अवतीर्य सन्न्यासिनं नमस्कृत्य लभन्तम्
राज्ञः अपेक्षाम् अश्रावयत्
अपेक्षाम् इत्युक्ते अस्य आशा अथवा एक्स्पेक्टेशन् आशा इति
अश्रावयत् मीन्स्
श्रावयति इत्युक्ते तत्र श्रावयति पाठयति इति तादृशार्थे Made him here इति अर्थे पाठयति चालयति अन्यान् करोति प्रेरयति इति तत्र रिकौण्टेड् इति अश्रावयत् तस्य राज्ञः इति विभक्ति का तत्र
षष्ठी
राज्ञः इति षष्ठी तस्य राजा अस्ति तस्य अपेक्षाम् अपेक्षाम् इति कर्मपदम् हा अपेक्षा इति स्त्रीलिङ्ग आशा आशा इति पदं समानार्थकपदं समीचीनं भगिनी धन्यवादः हा बहु सम्यक् अस्ति हा अस्तु अग्रे श्रीप्रिया भगिनी
अहम् नौ ऐ विल् लीव् द क्लास् बिकास् ऐ हव् गाट् सम् वर्क्
अस्तु भगिनि ओके नमस्कार अस्तु भगिनि हा अस्तु श्रीप्रिया भगिनी अग्रे
सः शान्तमार्गः अन्तरङ्गे भवति भवतः राज्ञः अन्तः अपि अस्ति सः राजानम् एतदेव वद इति अवदत् सन्यासी
हा अस्तु
सः शान्तिमार्गः सर्वेषाम् अन्तरङ्गे एव अस्ति इति सन्यासी उक्तवान्
सन्यासी उक्तवान्
सः अस्ति विशेषणं शान्तिमार्गस्य
सः शान्तिमार्गः अन्तरङ्गे अस्ति समीचीनं हा अग्रे
राज्ञः अपि अस्ति राज्ञः अन्ते अपि अस्ति इति शान्तिमार्गः अस्ति
हा अत्र द्वितीयवाक्ये भवतः राज्ञः अन्तः तत्र राज्ञः अपि षष्ठीविभक्ति तस्य अन्तः अपि अस्ति सः अत्र सः इत्युक्ते सः शान्तिमार्गः समीचीनं भगिनि हा अग्रे
एतदेव तादृशमेव राज्ञः
तत्र एतदेव वद इत्युक्ते एतद् वाक्यं यद् अहम् उक्तवान् तदेव राजानं
वदतु
अथवा तत्र वद इति हा समीचीनं भगिनि तत्र लोट् लकारः खलु हा
लोट् लकारः
इति अवदत् सन्यासी हा अग्रे अग्रे भगिनि
भटः प्रतिगत्य राजानम् एतदेव अवदत् भटः राज्ञः समीपे गत्वा सन्यासिनः वाक्यं
सन्यासिनः वाक्यम् अश्रावयत् अश्रावयत् यत् यत् पूर्वमासीत् तदेव खलु अश्रावयत् किन्तु तत्र प्रतिघत्य इति अस्ति प्रतिघत्य लेबन्तरूपं गृहं गत्य अथवा तत्र पुनः तत्र राजस्य राज्ञः प्रासादम् इति भवनं भुवनं किमपि अस्ति भवनं गत्वा हा राजानम् एतदेव सन्यासिनवाक्यम् अवदत् अथवा आश्रावयत् हा अग्रे
किन्तु राज्ञा एतस्य तात्पर्यं न अवगतम्
न न तत्र राज्ञा एतस्य तात्पर्यं न अवगतं हा तत्र
सन्यासिनः वा वचनमपि तृतीया
हा अस्तु राज्ञा एतस्य तात्पर्यं न अवगतं तत्र कर्मणि प्रयोगे तत्र कर्तृरूपे किं भवति राजा एतस्य तात्पर्यं न अवगच्छति अथवा अवगतवान् इति समीचीनं भगिनि हा समीचीनं हा इदानीम् अग्रे अतः
सः स्वयमेव प्रस्थाय तं सन्यासिनम् उपसत्य विनयेन नमस्कृत्य तस्य वचनस्य तात्पर्यम् अपृच्छत् राजा राज्ञा सन्यासिनः वचनं न अवगतम् अतः
तत्र भगिनि तत्र राजा एव प्रथमविभक्तिरूपम् अस्ति तत्र षष्ठी इति तत्र मध्ये मध्ये राज्ञा इति भवति तत्र यथा तृतीयविभक्तौ राज्ञा अपि षष्ठीविभक्तौ राज्ञः इति किन्तु राजा एव प्रथमविभक्तिरूपं
राजा किं कृतवान् इति सः सन्यासिनः समीपं गतवान्
उपसर्प्य इत्युक्ते तत्र समीपं गतवान् स्वयमेव प्रस्थाय, प्रस्थाय इति कीदृशरूपं लेबन्तरूपम् एव तत्र स्था प्र प्रस्था इति हा तत् लेबन्तरूपं संन्यासिनं तत्र द्वितीयविभक्ति
उपसर्ग विनयेन नमस्कृत्य अपि लेबन्तरूपम् अस्ति तस्य वचनस्य
तत्र उपसर्प्य इत्युक्ते तत्र सर्पति इति धातुः अस्ति तत्र सर्पति सर्पं सर्पति इति कोऽपि जानाति वा सर्पं सर्पति इत्युक्ते किमिति
स्लोलि महोदय
ग्लैड् ग्लैड् इति अर्थे यथा सर्पं चरति यथा सर्पः सर्पं चरति सर्पः वा सर्पः हा तत्र
तस्य सर्प इति अवदत् महोदय नहुष
हा 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 सत्यं सत्यं हा अगस्त्यम् उद्दिश्य खलु महोदय सत्यं तत्र उपसर्प्य इति तत्र उपगम्यापि तत्र वक्तुं शक्नुमः तत्र समीपं तस्य समीपं गत्वा विनयेन इति तृतीया तृतीयविभक्ति हा
नमस्कृत्य
तस्य वचनस्य
तात्पर्यम् अपृच्छत् स्वयमेव सन्न्यासिनः समीपे तात्पर्यम्
तत्र कस्य वचनस्य सन्न्यासिनः वचनस्य तात्पर्यम् अपृच्छत् अपृच्छत् समीचीनं भगिनि अपृच्छत् अग्रे अपि कर्तुम् इच्छति वा अथवा अन्ये अस्तु भगिनि करोतु हा
शान्तिमार्गस्य अन्वेषणं न बहिः करणीयं साधुः किम् उक्तवान् शान्तिमार्गः इच्छति चेत् अन्वेषणं बहिः न करोतु अन्तः एव करोतु अन्तः एव करणीयं
ब्रह्मान्वेषणात्
प्राप्तः मार्गः बाह्यशोभामात्रं वर्धयेत्
बाह्य अन्वेषणात् बाह्य अन्वेषणात् इति तत्र बाह्य इत्युक्ते तत्र औटर् इति तत्र बहिः यदस्ति तत्र बहिरङ्ग तत् तादृश बाह्य तस्य अन्वेषणात्
अन्वेषणात् प्राप्तः मार्गः यः मार्गः प्राप्नोति सः बहिः एव शोभा भवति
तस्य शोभां वर्धयेत्
जलप्राप्त्यर्थं यथा भूमौ खननं क्रियते तथा अन्तरङ्गे शोधनं करणीयम् जलस्य
जलं प्राप्तुम् इच्छामश्चेत् किं कुर्मः
भूम्यामेव छेदनं कुर्मः खननं
तत्र खननं तस्य खननं क्रियते तथैव तथैव अत्रापि
अन्तरङ्गे एव शोधनं करणीयं चित्तस्य एव शोधनं करणीयं
शोधनं तत्र शोध इत्युक्ते परिशोधनम् इति तादृश शोध इत्युक्ते तत्र अन्वेषणं रिसर्च् इति तादृश अर्थे शोधनम् इत्युक्ते तत्र इति तत्र तादृश तत्र अन्तरङ्गे एव तस्य शोधनं करणीयं समीचीनं भगिनि अस्तु अग्रे
तदा एव शान्तिः प्राप्येत इति विवृतवान् सन्यासी
इति विवृतवान् सन्यासी तत्र प्राप्येत इति रूपं वयं न जानीमः एतावत् तत्र कर्मणि रूपम् अस्ति कर्मणि रूपम् अस्ति तत्र
विधिलिङ्ग् भवति
न न प्राप्येत इति तत्र विधिलिङ्ग् इव दृश्यते भगिनि किन्तु कर्मणि रूपम् अस्ति तत्र तत्र प्राप् इति मन्ये
मध्यमपुरुषे
बहुवचनमस्ति वा महोदय
प्राप्येत् प्राप्येतं प्राप्येयुः प्राप्येतं
प्राप्येत प्राप्येत इति वा किन्तु तदा एव शान्तिः प्राप्येत मध्यमपुरुषः अस्तु प्रायशः अस्तु 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 भगिनि धन्यवादः. अहं चिन्तितवान् कर्मणि इति. अस्तु अस्तु प्रायशः तदपि वक्तुं शक्नुमः. अस्तु धन्यवादः. हा इति विवृतवान् सन्यासी. अस्तु विवृतवान् इत्युक्ते विवरणं कृतवान् सन्यासी. हा अस्तु धन्यवादः भगिनि. अस्तु हा अग्रे तत्र शुभा भगिनी अग्रे किञ्चित् वदति वा?
प्रयत्नं करोमि महोदय, किञ्चित् कठिनमस्ति. तदा राजा पुनः प्रार्थितवान्, यदा सन्यासी विवृतवान् तदनन्तरं पुनः राजा तं प्रार्थितवान्, अन्तरङ्गशोधनस्य सोपानानि कानि इति विवृणोतु भवान् कृपया. अन्तरङ्गे शोधनं करणीयम् इति सन्यासी उक्तवान्. तस्य अन्तरङ्गशोधनस्य कस्य कृते अन्तरङ्गशोधनस्य कृते सोपानानि कानि?
सोपानम् इत्युक्ते यथा गीतासोपानम् इति अस्माकं पुस्तकमस्ति. सोपानम् स्टेप् इति कानि इति
भवान् कृपया विवृणोतु.
तत्र प्रार्थनार्थे तत्र लोट्लकारस्य किन्तु कृपया इति अस्ति. हा प्रार्थना विवृणोतु, हा विवरणं करोतु,
ददातु
विवरणं ददातु. समीचीनं भगिनि. हा अग्रे
सन्यासी पुनः अवदत्. तस्य उत्तरम् आदौ किरीटं कीर्तिः राजत्वम् इत्यादीनाम् अपनयनं चिन्तय. आदौ इत्युक्ते प्रथमतया राजस्य किरीटं
राज्ञः.
ओ
तत्र महाराजा इति अस्ति, तत् सुलभपदम् अस्ति भगिनि. तत् सर्वदा एतदेव कुर्मः. तत्र राजा इति स्थाने महाराजः अस्ति चेत् तद् अकारान्तपदं भवति महाराजः, अतः महाराजस्य इति भवति. यदि राजा अस्ति चेत् तत्र राजन् इति नकारान्तपदम् अस्ति, तस्य षष्ठी अस्ति राज्ञः इति. अतः यत्र यत्र राजा अस्ति तत्र महाराजा इति गौरवं कृत्वा वदतु.
अस्माकं कृते अपि सरलं भवति.
सरलं भवति तावदेव. महाराजस्य किरीटम् इति
किरीटं कीर्तिः कीर्तिः राजत्वम् इत्यादीनाम् अपनयनं चिन्तय.
तत्र तत् तेषां नाशम् इति, तेषां नाशं ते न ते ते सर्वं त्यक्त्वा. खण्डनमिति न, किन्तु खण्डनमिति तत्तु एका चिन्ता अस्ति भगिनि, किन्तु तद् मनसि न भवेत् इति. हा खण्डनम् इत्युक्ते तत्र कट् इति अर्थे वा?
अपनयनमित्युक्ते रिमूव्, टेकिङ्ग् औट्,
हा डिसॉल्व, एलिमिनेट् इति. हा एलिमिनेट् तत्र मा भवतु इति. हा मनसि मा भवतु इति. अतः तेषां अपनयनं चिन्तय.
लोट्लकार ते च शुष्कमृत्तिका इव.
हा तत्र सन्यासी किं चिन्तयति, तस्य तत्र तुलना करोति खलु, कीदृशः अस्ति तत्र एषः मार्गः कीदृशः इत्युक्ते, तत्र जलप्राप्त्यर्थं यथा भूमौ खननं क्रियते इति तादृश उक्तवान् खलु. हा अतः तत्र शुष्कमृत्तिका इव इति वदति तत्र अग्रे. ड्रै इति शुष्कमृत्तिका इव इति वदति. हा अतः तदनन्तरं
ततः ततः पुंस्त्वादिकमपि पार्श्वे स्थापय.
हा तदपि त्यजतु. पुंस्त्वम् इति तद् यद् वा तत्र प्रत्येकस्य, ओ अहं पुरुषः महिला इति तादृश अपि त्यजतु इति.
स्थापय लोट्लकर. तस्मात् आर्द्रमृत्तिका कारणतः भूमिः खननार्हतां यथा प्राप्नोति.
तस्मात् कारणात्
आर्द्रमृत्तिका कारणतः
आर्द्र इति अस्ति विरुद्धं शुष्क इति पदस्य,
शुष्कस्य विरुद्धार्थपदं,
विरुद्धार्थकपदम् आर्द्र इति
कारणतः एतदपि पञ्चमीविभक्तिरूपं. भूमिः खननार्हतां यथा प्राप्नोति, भूमिः खननार्हतां प्राप्नोति तथा एव भवतः अन्तरङ्गम् अपि, भवतः अन्तरङ्गम् अपि परिशोधनार्हतां प्राप्नोति.
तत्र अर्हता इति अस्ति, अर्हता इति स्त्रीलिङ्गे,
अर्हताम् इति कर्मपदं,
अर्हतां प्राप्नोति इति कर्मपदं. तत्र भूमिः, भूमिः अर्हतां प्राप्नोति, कीदृशः अर्हतां प्राप्नोति भूमिः? खनन अर्हता, कस्मात् 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 प्राप्नोति?
आर्द्रकारणतः
तत्र जलम् अस्ति इति कृत्वा, तत्र मृत्तिका, तत्र शुष्कमृत्तिका अस्ति चेत् तत्र खननं क्लिष्टः अस्ति खलु, कठिनम् अस्ति खननं. किन्तु आर्द्रमृत्तिका अस्ति चेत् खननं सुलभम् अस्ति इति तत्र, अतः तत्र अपि यदि आर्द्रमृत्तिका नास्ति चेत् तत्र अधो जलम् अस्ति न वा इति तत्र प्रायशः न जानीमः खलु, किमपि तादृशचिन्तनमस्ति इति मन्ये. किन्तु तत्र खनन अर्हता आर्द्रमृत्तिकाकारणतः भूमिः प्राप्नोति,
तथैव भवतः अन्तरङ्गमपि परिशोधनार्हतां प्राप्नोति. कीदृश अर्हतां? परिशोधनार्हतां प्राप्नोति,
परिशोधन कर्तुम् अर्हता. तत्र परिशोधन अन्तरङ्गस्य शोधनं करणीयं चेत् प्रथमतया किमपि कर्तुम् इच्छामश्चेत् तत् कार्यं कर्तुम् अर्हता प्रथमतया आवश्यकम् अस्ति खलु. यदि तत्र अहं मन्दिरं गत्वा तत्र अहं होमं कर्तुम् इच्छामि चेत् तत्र बहु किमपि अर्हता आवश्यका अस्ति खलु. कोऽपि तत्र गत्वा होमं कर्तुं न शक्नोति, तत्र किमपि ज्ञानम् आवश्यकम् अस्ति खलु, बहु बहु ज्ञानम् अपेक्षितम् अस्ति. अतः तत्र अर्हता प्रथमतया आवश्यकम् अस्ति. तादृश अर्हता प्रथमतया तत्र तस्य प्राप्तिः भवेत् इति वदति. अतः तत्र एतत् सर्वं कृत्वा तत्र अर्हतां प्राप्नोति, अन्तरङ्गम् अपि परिशोधनार्हतां प्राप्नोति इति. समीचीनं भगिनि, धन्यवादः. अस्तु, हा अस्तु, अग्रे तत्र शोभा भगिनी पठति वा?
आम् महोदय. ततोऽग्रे अभावात्मकचिन्तनानि दूरीकरणीयानि. ततः अग्रे तत्र भावात्मक तस्य विरुद्धम् अभावात्मकचिन्तनानि दूरीकरणीयानि करणीयानि अन्य भावात्मकचिन्तनानि अथो अधः अधः
अत्र अधो अधः गन्तुम् इच्छामः, केवलं किञ्चित् अधः न,
अधो अधः,
अधो अधः गन्तुं, तत्र गन्तुमेव, तत्र
गहना
स्थगितुं न इच्छामः, तत्र गन्तुं अग्रे एव गन्तुम् इच्छामः, खननं कर्तुमेव इच्छामः.
भावात्मकचिन्तनानि अधो अधः खननं सङ्केतयन्ति.
अत्र मम मनसि अपि भगिनि, तत्र मम मनसि किञ्चित् क्लेशः अस्ति, तत्र कोऽपि अन्ये कोऽपि वदन्तु तत्र के चिन्तयन्ति अत्र इति. तत्र अभावात्मकचिन्तनानि इत्युक्ते अभावात्मकचिन्तनानि दूरीकरणीयानि, अपि भावात्मकचिन्तनानि सङ्केतयन्ति, अधो अध खननं सङ्केतयन्ति इत्युक्ते ते सर्वं समीचीनम् इति
अहं मन्ये महोदय. खननं
भगिनि
भावात्मकचिन्तनानि समीचीनानि.
किन्तु तत्र भावात्मक इत्युक्ते किम्, अभावात्मक इत्युक्ते किम् इति कोऽपि किं चिन्तनम्?
आध्यात्मिक इति,
आध्यात्मिक अस्तु, आध्यात्मिक इति भावात्मक, आध्यात्मिक लौकिकचिन्तनं दूरीकरणानि इति.
इति अहं मन्ये महोदय.
समीचीनं समीचीनमेव. अस्तु अस्तु.
अतः खननं सङ्केतयन्ति.
हा सङ्केतयन्ति, इण्डिकेट् इति. हा सङ्केतं. हा अधो अधः खननं, तस्य अधो अधः खननं सङ्केतयन्ति.
ततोऽग्रे, ततः अग्रे स्वस्य अभिज्ञानम् अस्तित्वम् इत्यादीनामपि विलयः चिन्तनीयः.
हा तत्र भगिनि किञ्चित् उच्चैः वदतु भगिनि. तत्र कनेक्षन् तत्र प्रतिध्वनि अथवा अन्य
प्रतिध्वनि कुत्र?
इदानीम् इदानीं सम्यक् अस्ति भगिनि, इदानीं सम्यक् अस्ति. हा
अस्तु. तत्र ततो अभिज्ञानम्,
अभिज्ञानम् इत्युक्ते तस्य स्वस्य अभिज्ञानं,
रेकग्निशन् इति.
रेकग्निशन्, स्वस्य अभिज्ञानं,
स्वस्य अभिज्ञानम् अस्तित्वम् अपि. अस्तित्वम् इत्युक्ते स्वस्य अस्तित्वं.
तत्र स्वस्य अभिज्ञानम्, अहम् अत्र अस्मि, अहं चिन्तनं करोमि, अहं ध्यानं करोमि इति, प्रायशः तादृश. अथवा अन्यत्
ईगो इति अस्ति इति अहं मन्ये महोदय.
किं भगिनि? तदपि अहङ्कारः, अहङ्कारः अपि. समीचीनं भगिनि, तदपि. सत्यं सत्यं.
विलयः चिन्तनीयः.
विलयः अपि तत्र अपनयनम् इति अर्थे एव. तत्र तदपि तत्र ते अपि मास्तु, तस्य अपि त्यागः भवतु, तस्य त्यागं ते अपि त्यक्त्वा इति.
सा च स्थितिः साधिता चेत् स्फटिकनिभं परिशुद्धं जलम् इव शान्तिसन्तोषसन्तृप्त्यादयः प्राप्यन्ते. तत्र सा च स्थितिः, स्थितिः इति स्त्रीलिङ्गे अस्ति इति कृत्वा सा इति, सा च स्थितिः, अतः एव साधिता इति.
हा समीचीनं भगिनि. हा तदपि विशेषणं, स्थितिः पदस्य विशेषणं.
विशेषणं स्फटिकनिभम् इति इत्युक्ते, निभम् इत्युक्ते इव इति.
इव सत्यं भगिनि. स्फटिकम् इव,
स्फटिक इव, परिशुद्धं. तत्र विशेषविशेषणं स्फटिकनिभं परिशुद्धं जलम्.
हा सत्यं भगिनि, जलं पदस्य तत्र स्फटिकनिभं परिशुद्धं विशेषणद्वयं.
द्वयम् इव शान्ति सन्तोष सन्तृप्त, तत्र समस्तपदं शान्तिः सन्तोषः सन्तृप्तं
सन्तृप्तिः 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 आदयः इति आदयः सन्तृप्तिः इति आदयः
प्राप्यन्ते इति कर्मणि इति.
हा इति मन्ये भगिनि, सत्यं प्राप्यन्ते. ते ते सर्वे अस्माभिः प्राप्यन्ते अथवा भवता प्राप्यन्ते. अतः बहुवचने अस्ति इत्यादयः इति बहुवचने अस्ति इति कृत्वा. हा सत्यं भगिनि. अग्रे
एतस्यां स्थितौ यावत् तिष्ठेम तावत् शान्त्यादयः अपारप्रमाणेन प्राप्यन्ते. एतस्याम् इति बहुवचने स्थितौ यावत्
बहुवचने न, तत्र एतस्याम् इति
क्षम्यताम्, एतस्याम् अस्याम् इति.
स्थितिः स्थितौ
स्थितौ स्थितौ अपि सप्तमी
मतिशब्दवत् तत्र स्थितिः हृस्वैकारः.
यावत् तिष्ठेम, तत्र तिष्ठेम विधिलिङ्ग महोदय,
विधिलिङ्ग अस्ति भगिनि, सत्यं.
यावत् तिष्ठेम तावत् यदा एतस्यां स्थितौ तिष्ठेम तदा इति अर्थे महोदय.
सत्यं भगिनि.
शान्त्यादयः, शान्तिः आदयः,
तत्र शान्तिः सन्तोषः सन्तृप्ति आदयः इति तत्र
इत्यादि इति अपारप्रमाणेन प्राप्यन्ते. तत्रापि प्राप्यन्ते इति बहुवचने कर्मणि,
कर्मणि तत्र अपारप्रमाणेन, तत्र
अपारप्रमाणेन इत्युक्ते
तस्य तस्य मापनमेव कर्तुं न शक्नुमः इति. तत्र कियत् अस्ति इति न वक्तुं, कियत् इति न वक्तुं शक्नुमः.
अस्तु महोदय.
तस्य प्रमाणं, तस्य
प्रमाणम् अपार
अपारः अस्ति,
अपारः अस्तु.
अपारप्रमाणेन
प्राप्यन्ते
प्राप्यन्ते
सततप्रयासेन निरन्तराभ्यासेन च सा स्थितिः वेगेन प्राप्तुं शक्या तत्र सतत अपि प्रयासेन सतत इत्युक्ते
सर्वदा सर्वदा तस्य प्रयासं भवति
कुर्मः चेत् निरन्तराभ्यासेन अपि च निरन्तर अभ्यासेन तथा
तत्रापि सर्वदा सर्वदैव तत्र अन्त अन्तर निरन्तर तत्र मध्ये कोऽपि तत्र
व्यवधानं न दत्वा
हा सत्यं सत्यं विना विना
विना विरामेण
विना विरामेण अपि तत्र तृतीय तत्र प्रयासेन अपि अभ्यासेन तृतीय तत्र माध्यमं
सा स्थितिः अत्रापि स्थितिः स्त्रीलिङ्गे अतः सा स्थितिः वेगेन तृतीया प्राप्तुं शक्या तत्रापि शक्या इति स्त्रीलिङ्गे
हा शक्या इति शक्या इति पदं कस्य पदस्य
सा स्थितिः
हा सा स्थितिः शक्या समीचीनं भगिनि सा स्थितिः शक्या कीदृश कीदृशी शक्या प्राप्तुं शक्या
प्राप्तुं शक्या
अपि प्राप्तुम् इति पदस्य तत्र तत्र प्राप्तुम् इति अस्ति तत्र तस्य भावः प्राप्तुम् इति तस्य भावः अस्ति वेगेन वेगेन प्राप्तुं सन्तोषेण करोमि इति तत्र सन्तोषेण प्राप्नोमि इति तादृशवेगेन प्राप्तुं शक्या किन्तु अत्र सततप्रयत्नेन अपि निरन्तर अभ्यासेन तद् माध्यमं भवति तत्र एतद् वेगेन इति तत्र किञ्चित् भेदः अस्ति तत्र समीचीनं भगिनि अग्रे
आदौ तस्याः स्थितेः प्राप्त्यर्थम् अधिकप्रयासः करणीयः आदौ इत्युक्ते प्रथमतया तस्याः स्थितेः तत्र षष्टिः तस्याः अपि तस्याः स्थितेः प्राप्त्यर्थं
तस्य प्राप्त्यर्थं तत् अन्यथा रीति तस्य तस्य घृणार्थम् अथवा तत् भवेत् इति अस्तु तत्र अन्यत् पदं मम अपि मयापि न चिन्तितमस्ति हा तत्र प्राप्त्यर्थं प्राप्तिः प्राप्त्यर्थम् इति अस्ति तत्र प्राप्तिः भिन्नपदमस्ति तत्र प्रायशः प्राप्तिः इति स्त्रीलिङ्गे अस्ति अतः तत्र प्राप्तिः इति मतिशब्दवत् इति अस्ति इति मन्ये तत्र तस्य चतुर्थी किम् अस्ति तत्र तत् स्थापितुं शक्नुमः इति मन्ये तत्र
प्राप्यै
हा तत्र प्राप्य इति तत्र एतत् कारणम् अस्ति इति तद् इच्छामः अतः तस्मै एतत् अधिकप्रयासः करणीयः इति तत् प्राप्तुम् इति अधिकप्रयासः आदौ अधिकप्रयासः करणीयः
किन्तु गच्छता कालेन अभ्यासफलात् सा शीघ्रमेव प्राप्यते
तत्र अभ्यासफलात् अपि कारणपञ्चमी अभ्यासबलात्
पञ्चमे सा शीघ्रमेव प्राप्यते कर्मणि सा स्थितिः गच्छता कालेन शीघ्रमेव प्राप्यते
शीघ्रमेव प्राप्यते इति समीचीनं भगिनि अस्तु अन्तिमम् एकमेव अस्ति तदपि समापयतु
भवदुक्तेन क्रमेण साधनां करिष्यामि इति उक्त्वा
सन्यासिनं पुनः अनुसृत्य ततः निर्गतवान् राजा.
हा तत्रापि लेबन्तरूपम् अस्ति, तत्र उक्त्वा नमस्कृत्य इति. अत्र मध्ये प्रायशः लेबन्त अथवा क्वान्तरूपं नासीत् खलु मध्ये, भवती पठितवती प्रायशः तत्र नास्ति इति मन्ये, किन्तु पूर्वम् आसीत् बहु किमपि अनेकानि लेबन्त क्वान्तरूपाणि आसन्, किन्तु अत्र प्रायशः केवलं तत्र नमस्कृत्य उक्त्वा इति एव अस्ति. हा अस्तु अस्तु, तर्हि तत्र प्रश्नाः सन्ति वा? कथां सर्वे अवगतवन्तः?
महोदय प्रीवियस् लैन् ओके, ततः पुंस्वादिकमपि, वाट् इस् द मीनिङ्ग्, अर्थः किं पुंस्वा?
अहं चिन्तयामि, अहं पुरुषः, अहं महिला, अहम् इत्र तत्र अस्माकं यद् विचारं वयं चिन्तयामः, अस्तु अहं पिता अस्मि, अहं पुत्रः अस्मि, अहं पुरुषः अस्मि इति, तादृश सर्वं पार्श्वे स्थापय इति, तत्सर्वं त्यजतु इति, त्यक्तव्यम् इति. हा त्यक्तव्यम् इति, तत् प्रथम अथवा द्वितीया
स्फटिकम्
स्फटिकम् इव, स्फटिकम् इत्युक्ते क्रिस्टल् क्लियर् इति, तत्र स्फटिकं क्रिस्टल् इव, निबम् इत्युक्ते इव इव.
धन्यवादः.
हा तत्र इव इति तदनन्तरमपि भवति, स्फटिकं निभं तत्रापि इव, तदनन्तरं परिशुद्धं जलम् इव, हा तत्र पुनः इव भवति तत्र. अस्तु अन्य प्रश्नः. सत्यं सत्यं, पुंसि इति तत्र पुल्लिङ्गे इति मन्ये भगिनि, तत्र पुंस्त्वं, पुंस्त्वम् इति पुरुषस्य पुल्लिङ्गस्य गुणम् इति भावः, पुंस्त्वम् इति तत्र पुंस्त्वादिकम्, अत्र तत्र पुम् इति तस्य भावः पुंस्त्वम् इति. हा किन्तु तत्र केवलम् आदिकम् इति अस्ति इत्युक्ते तत्र अहं पुरुषः अस्मि, पिता अस्मि, महिला अस्मि, पुत्री अस्मि, माता अस्मि, तत्सर्वम् इति अहं मम चिन्तनं न जानामि. पुंस्त्वादिकम् इति तादृश इति मन्ये भगिनि.
भावात्मकचिन्तनानि इत्युक्ते किं महोदय?
तत्र शोभा भगिनी उक्तवती खलु, तत्र आध्यात्मिकचिन्तनं भावात्मकम् इति वक्तुं शक्नुमः इति. आध्यात्मिकम्
आध्यात्मिकम्
अपि अन्यदपि तत्र अन्यदपि प्रायशः भवेत्, किन्तु तदपि समीचीनमेव अस्ति इति मन्ये. हा
संस्कृत स्पोकन् संस्कृत मध्ये दत्तमस्ति कन्सिस्टिङ्ग् आफ् रियालिटि,
किं भाव अथवा अभाव?
भाव
भाव अस्तु, अभाव. अतः तत्र अत्र न्यायशास्त्रे अभाव इत्युक्ते यद् नास्ति, भाव इत्युक्ते यद् अस्ति इति, अतः तत्र तस्य तेन अपि किमपि कर्तुं शक्नुमः, तत्र अर्थः कः इति.
रियालिटि इत्युक्ते ब्रह्मन् एव महोदय.
अस्तु सत्यं भगिनि, अतः सत्यं ब्रह्मसत्यं जगत् मिथ्यम् इति कृत्वा
इत्युक्ते भाव अभाव द्वयोः करणं करणीयं महोदय.
किं भगिनि? किन्तु अत्र सः वदति अभावस्य चिन्तनं मास्तु, भावस्य चिन्तनम् अधिकं भवतु इति.
भावस्य चिन्तनं खननं करोतु इति वदति,
खननं करोतु इति न, भावात्मकचिन्तनानि अधो अध खननं सङ्केतयन्ति. हा तत्र खननं भवति इति ते सूचयन्ति, इत्युक्ते तत्र अन्तरङ्गे अधो अधो गच्छन् स्मः इति सूचयन्ति ते भावात्मकचिन्तने. अतः तत्र आध्यात्मिकचिन्तनानि अथवा ब्रह्मणः चिन्तनम् इति प्रायशः सः एव सम्यक् इति मन्ये अत्र. किन्तु सर्वे अपि चिन्तयन्तु, तत्र केवलम् अस्यां कथायां वयं किं कृतवन्तः, केवलं व्याकरणस्य विषये एव चर्चां कृतवन्तः, कथायां बहु किमपि अस्ति, अनेकवारं पठित्वा तत्रापि ज्ञानं भवति, किन्तु वयं केवलं व्याकरणस्तरे किं वक्तुं शक्नुमः तद् उक्तवन्तः अत्र, खलु?
अग्रिमसप्ताहे पठामः महोदय अन्यवारम्।
अस्तु भगिनि, हा पुनः सर्वे चिन्तयन्तु, अग्रिमे वर्गे तत्र मिलित्वा पुनरेकवारं चर्चां कुर्मः। अस्तु भगिनि, समीचीनमेव।
तत्र क्लेशः जातः, लैक् आदौ किरीटं कीर्ति राजत्वम् इत्यादिनाम् अपनयनं चिन्तय, इत्युक्ते तत् सर्वं शुष्कमृत्तिका अस्ति,
हा तत् सर्वं त्यजतु इति, हा ते सर्वं हा समानम् अस्ति इति, तस्य आवश्यकता अधो गन्तुम् इच्छति चेत् तत्र तस्य आवश्यकता तेषाम् आवश्यकता नास्ति इति चिन्तयतु इति।
ततः पुंस्वादिकमपि पार्श्वे स्थापय,
तदपि त्यजतु इति,
किमपि पुंस्त्वादिकमपि एकं देव दत्तमस्ति तत्र, लैक् लैक्
केवलं पुंस्त्वम् इति न, इत्यादिकम्
इत्यादिकमपि
पुंस्त्वम् पुंस्त्वम् आदिकम् अपि
इत्युक्ते किं किम् अस्ति तत् मध्ये मध्ये महोदय?
अतः तदेव भगिनि अहं चिन्तितवान् तत्र पुंस्त्वम् इत्युक्ते तत्र पुल्लिङ्गम् इति तस्य
पुंस्त्वं,
हा तत्र अहं पुरुषः अहं महिला इति यत् वयम् अस्माकं वर्णनं तत्र अस्माकं वर्णनं कथं वयं कुर्मः, हा सत्यं तत् सर्वं, हा सत्यं भगिनि, हा तत् सर्वं त्यजतु इति, सत्यं भगिनि, तत्र प्रथमतया तत्र यद् वस्तु अस्ति खलु तत्र किरीटं कीर्तिः इति, तत् सर्वं त्यजतु, तदनन्तरम् एतद् मम योजनम्, एतद् मम चिन्तनम्, एतद् मम आकृतिः इति यत् चिन्तयामः तदपि त्यजतु इति मन्ये। वदतु भगिनि,
प्राप्येत, क्षम्यतां महोदय, कर्तरी विधिलिङ्ग् नास्ति, प्राप्नुयात् इति अस्ति कर्तरी, कर्मणि इति मन्ये
महोदय। ओ अस्तु भगिनि, धन्यवादः, अहं कर्मणि इति चिन्तितवान्, अस्तु धन्यवादः,
कर्मणि एव महोदय,
कर्मणि एव, अस्तु भगिनि धन्यवादः, अस्तु
कर्मणि विधिलिङ्ग् अस्ति महोदय। अन्य एकः प्रश्नः, पेज् 138 मध्ये धृत्यात्मनाम् अस्ति किल महोदय, धृत्यात्मनाम्
138 अस्तु,
नियम्य धृत्यात्मनां नियम्य च, तत्र सन्धिः अस्ति वा धृत्यात्मनां, तत्र लेबन्तं नास्ति किल
महोदय, तत्र लेबन्तं नास्ति वा, धृत्य इति चिन्तितवान्,
धृत्यात्मनां भवितुम्,
ओ अस्तु 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 धृतिः, हा क्षम्यतां धन्यवादः भगिनि, अस्तु हा शुभा भगिनी क्षम्यतां, हा धृतिः एव आसीत्, अस्तु अहं चिन्तितवान् धृत्य अपि आत्मानम् अस्तु, धृतिः प्लस् आत्मानं, सत्यं भगिनि, तत्तु समीचीनमेव, समीचीनं भगिनि धन्यवादः। अतः तत्र नियम्य एव एकमेव अस्ति क्रियापदं तत्र लेबन्तरूपं, हा धृति, हा सत्यं सत्यं धन्यवादः, समीचीनमेव, हा समीचीनं धन्यवादः भगिनि,
अत्र उद्यम्य संयम्य तत्रापि यं यच्छति धातुः, यं यच्छति संयच्छति संयम्य,
हा अत्र
तदा एव उद्यम्य यं यं
दातुः, सत्यं सत्यं भगिनि, समीचीनम् अस्तु सत्यं
महोदय। आहत्य इति इत्युक्ते किम्? आहत्य इति श्रुतवती गतवर्गे, किन्तु तदर्थम्
आहत्य वा?
आम्
आहत्य, टुगेदर् इति, सर्वम् आहत्य, पुटिङ्ग् एव्रिथिङ्ग् टुगेदर् इति,
इन् कन्क्लूजन्,
इन् कन्क्लूजन् हा इति, तत्र
तस्य एतत् किं महोदय,
प्रायः तदपि ल्यबन्तरूपमेव अस्ति इति मन्ये, आहत्य इति तत्र धातु किं द्रष्टव्यं, तत्र आहत्य
नो चेत् एकं वाक्यं वदतु महोदय, तद्
तत्र सर्वम् आहत्य एतत् वक्तुं शक्नुमः इति तत्र अस्तु, तत्र किम्
आहत्य अव्ययमस्ति महोदय,
आहत्य अव्ययम् अस्ति वा?
लबन्तपदानि अव्ययानि एव खलु,
नास्ति तत्र लबन्त अर्थे नास्ति।
अस्तु धन्यवादः, धन्यवादः। अस्तु तत्र आहत्य इति, धन्यवादः भगिनि, तत्र आहत्य इति, अत्र आहत्य इति पदस्य अर्थः, तत्र उदाहरणं किं दातुं शक्नुमः, तत्र
कति फलानि सन्ति इति अपि आहत्य,
आहत्य दशफलानि सन्ति इति तत्र भवति, इन् सम् इति, इन् सम् अथवा इन् कन्क्लूजन् टुगेदर् इति एतत् सर्वं तत्र
आहत्य अष्टछात्राः सन्ति अपि सम्यक्,
आहत्य अष्टछात्राः सन्ति अथवा एतत् कारणम् अस्ति, सः तत्र कस्यापि छात्रस्य विषये वयं वदामः, अस्तु सः एतत् न प्रथमकारणं, द्वितीयकारणं, तृतीयकारणम् अस्तु, अतः आहत्य वयं वक्तुं शक्नुमः तत्र सः परीक्षायाम् उत्तीर्णः न भवति इति, तादृश आहत्य, इन् कन्क्लूजन् इन् सम् इति, अस्तु, किन्तु आहत्य इति पदस्य अन्वेषणं करणीयमस्ति, अस्तु। तत्र संस्कृतस्य शब्दकोशः तु तादृशः विशालः अस्ति, सर्वं वयं न स्मर्तुं शक्नुमः, तत् अनेकाः कर्तुं शक्यते किन्तु तत्र मया तु न कर्तुं, अतः तत्र बहु किमपि तत्र एकवारं पश्यामः किन्तु वारं वारं न पश्येम, तत्र मनसि न स्थापितं भवति पदम् अपि तस्य अर्थः,
प्रथमवारमेव श्रुतवती अतः
हा, समीचीनं भगिनि, समीचीनम्, आहत्य इति हा समीचीनम्। अन्यप्रश्नः अस्ति वा, नो चेत् विरमामः, अस्तु, नमस्कारः, धन्यवादः, अग्रिमवर्गे मिलामः, नमस्कारः,
नमस्कारः,
नमस्कारः।